एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। गृह मन्त्रालयेन स्वसम्पत्स्यमानस्य प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनस्य सुरक्षायाः सकलानि पूर्वकार्याणि प्रपूरितानि सन्तीति ज्ञापितं वर्तते। गृहमन्त्रालयेन ह्य सीमा प्रासादे पत्रकार सम्मेलनम् आयोज्य निष्पक्षाय शान्तिपूर्णाय च निर्वाचनाय सर्वं सुरक्षा प्रबन्धनं विहितमिति ज्ञापितमस्ति। पत्रकार सम्मेलने गृह सचिवः विनोद प्रकाश सिंह मतदानाय प्रभाव सर्जनात्मकेषु सर्वेषु गतिविधिषु शून्य सहनशीलताम् अवलम्बितुम् सर्वे सुरक्षा निकायाः निर्दिष्टाः सन्तीति अवोचत। गृह सचिवः सिंह मतदान केन्द्रस्य सुरक्षायै स्तरत्रये नेपाल प्रहरी सशस्त्र प्रहरी नेपाली सेनानाम् सुरक्षा परिवेष्टनम् भविष्यतीति ज्ञापयन् कस्यामपि अवांछित घटनायाम् घटितायाम् सत्याम् अर्धघण्टायाः अभ्यन्तरे नेपाली सेनायाः समूहस्य प्राप्त्यर्थम् सुरक्षा प्रबन्धः विहितोऽस्तीति अवोचत। गृह मन्त्रालयेन निर्वाचने विघ्नकारिणी सम्भावित व्यक्तिः समूहाञ्च अभिज्ञाय कतिचित् जनान् निगृह्य च वैधानिक दण्डन प्रक्रिया अग्रे वर्धापिता अस्तीति ज्ञापितम् वर्तते। एवमेव निर्वाचने प्रभाव सर्जनोद्देशेन देशस्य कतिचित् स्थानेषु भीतस्य विस्फोटनस्य घटनाः आधृत्य मन्त्रालयः सचेष्टो वर्तते इति सूचयन् गृह सचिवः सिंह तथा विधान गतिविधिन् नियुन्तुम् कस्मिन्नपि शंकास्पद वस्तुनि प्राप्ते सति तच्च नियन्तुम् च आराष्टम् उत्तर नवशत स्थानेषु नेपाली सेनायाः विस्फोटक पदार्थ निष्क्रिय कारिणः समूहाः तत्परावस्थायाम् स्थापिताः सन्तीति अभासत। प्रतिनिधि सभायाः प्रदेशसभानां च सदस्यानां निर्वाचनाय श्व रविवासरे आराष्टम् एकस्मिन्नेव चरणे मतदानं भविता। प्रतिनिधिसभायाः कृते प्रत्यक्ष समानुपातिकश्चेति कृत्वा पक्षद्वये पञ्चसप्तत्यधिक शतद्वयस्य प्रदेशसभानां कृते प्रत्यक्ष समानुपातिकश्चेति पक्षद्वये पञ्चाशदधिक पञ्चशतस्य च स्थानानां कृते एकादश सहस्राणि त्रिचत्वारिंशदधिक पञ्चशतञ्च प्रत्याशिनः प्रतिस्पर्धायां वर्तन्ते। निर्वाचन आयोगेन यथाशीघ्रं निर्वाचनस्य परिणामस्य सार्वजनिकरणस्य उद्देश्येन सर्वासां मतमञ्जुषाणां मतगणना स्थलं प्रापणस्य अनुपदमेव मतगणनायाः प्रारम्भणस्य व्यवस्थापिता स्थिति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः ज्ञापयति। निर्वाचन आयोगेन निर्वाचनस्य मतगणनया मतपरिणामेन च सम्बद्धायाः सूचनायाः कार्यं सहजं प्रभावकारी च विधातुं षट्सूत्रीयं निर्देशनं प्रदत्तं वर्तते। आयोगेन प्रत्येकं मतगणनास्थले संचारकक्षं संस्थाप्य संचारकर्मिभ्य सूचना प्राप्तये सहज स्थितिं स्रष्टुं सम्बद्ध निर्वाचनाधिकृत कार्यालयस्य सहायक निर्वाचनाधिकृतम् अन्यं कमपि कर्मचारिणं वा सूचनाधिकारिणं निर्धार्य सूचना प्रवाहे आवश्यक सहजीकरणाय सर्वान् मुख्य निर्वाचनाधिकृतान् निर्वाचनाधिकृतान् प्रादेशिकान् जनपदीयाञ्च निर्वाचन कार्यालयाञ्च निर्देष्टुं निर्णीतमिति ज्ञापितं वर्तते। मतगणनास्थले राजनीतिक दलानां प्रत्याशिनां च सहमतेः आधारेण ध्वनि विस्तारोपकरणेन प्रदर्शन विस्तार रणोपकरणेन अन्यैर्माध्यमैर्वा मतपरिणामस्य सूचनां प्रदातुमपि आयोगेन निर्दिष्टं वर्तते। एवमेव आयोगेन मतगणना सम्बद्धायाः आधिकारिकतायाः पुष्टिभवनेन विना सूचना प्रवाहं न कर्तुं कारयितुं च सर्वे संचारमाध्यमाः अनुरुद्धाः सन्ति। निर्वाचन आयोगेन अस्थायी मतदातृणां मतदानस्य व्यवस्था प्रथमवारं क्रियान्विता वर्तते। आयोगेन मतदातृनामावल्यां समाविष्ट नाम्नां परं मतदान केन्द्रे असंलग्नानां कर्मचारिणां सुरक्षाकर्मिणां वृद्धाश्रमेषु विद्यमानानां व्यक्तिनां निर्वाचनापराधे दण्डितान् जनान् विहाय कारावासे स्थितानां बन्दीजनानां च कृते प्रतिनिधिसभायाः समानुपातिक निर्वाचन प्रणाल्याः पक्षे मतदानस्य व्यवस्था क्रियान्विता अस्ति। आयोगेन अस्थायी मतदातृभिः मतदानार्थम् आराष्टम् एकचत्वारिंशदुत्तर शतम् अस्थायी मतदान केन्द्राणि निर्धारितानि सन्ति। आयोगेन मतदान केन्द्रे नियुक्तानां कर्मचारिणां सुरक्षाकर्मिणां च कृते कार्यस्थलस्य केन्द्रे एव मतदानस्य व्यवस्था विहिता अस्ति। आराष्टं 4,00,000 50 सहस्राणि च अस्थायी मतदातारो निर्धारिताः सन्तीति आयोगोऽसौ सूचयति। स्वर अभिवासरे सम्पत्स्यमानस्य प्रतिनिधि सभायाः प्रदेश सभानां च सदस्यानां निर्वाचनस्य सुरक्षा व्यवस्थापनस्य सन्दर्भे ह्य प्रमुख निर्वाचन आयुक्तेन दिनेश कुमार थपलिया विधेयन सह प्रधान सेनापतिना प्रभुराम शर्मणा सहितेन उच्चस्तरीय समूहेन मेलवार्ता विहिता वर्तते। आयोगस्य कान्तिपथस्थिते कार्यालये वित्तस्य मेलनस्य अवसरे प्रधान सेनापतिना शर्मणा निर्वाचनस्य सुरक्षायै नेपाली सेनाया विधीयमानानि कार्याणि ज्ञापयता अधुनावधि विहितस्य स्थलगत निरीक्षणस्य प्राप्त सूचनाया साधारेण निर्वाचनस्य सुरक्षा सुदृढावस्थायम् अस्तीति सूचयता च निर्वाचनम् सुरक्षित वातावरणे सम्पादयितुम् सेनाया पक्षतः निर्वहणीयानाम् भूमिकाम् निर्वोढुम् नेपाली सेना तत्परावस्थायम् अस्तीति स्पष्टीकृतम् आसीत्। तदवसरे प्रमुखायुक्ता थपलिया अगदत् निर्वाचनस्य सुरक्षाया व्यवस्थापनाय मतपत्राणाम् मुद्रणाय परिवहनाय च निर्वाचन सामग्रीणाम् सत्यापनाय पोटलिकाकरणाय दुर्गम हिमालयीय जनपदेषु मतपत्राणाम् मतदान सामग्रीणाम् कार्यरत कर्मचारिणाम् च प्रापणाय च नेपाली सेनातः प्राप्त सहयोगः महत्वपूर्ण वर्तते। जियोक नाम्न्या जननिर्वाचन पर्यवेक्षण समित्या स्व रविवासरे सम्पत्स्यमानस्य निर्वाचनस्य पूर्व कार्यैः व्यवस्थापनेन च स्वच्छम् स्वतन्त्रम् मितवै भयरहितञ्च निर्वाचनम् सुनिश्चितम् अस्तीति ज्ञापितम् वर्तते। समित्या ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मतदानात् पूर्वस्य अध्ययनात् अवलोकनात् निरीक्षणात् च निर्मिते प्रतिवेदने निर्वाचनस्य पूर्व कार्याणि वातावरणञ्च पूर्वकालापेक्षया सुदृढानि सन्तीत्यतः स्वच्छम् शान्तिपूर्णञ्च निर्वाचनम् भविष्यति इति निश्चयावस्थास्तीति ज्ञापितम् वर्तते। तदवसरे प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया राजनीतिक दलैः प्रत्याशिभिश्च अनुशासनस्य परिधौ स्थित्वा आचार संहितायाः पालनायाः कारणेन उपयुक्तम् वातावरणम् निर्मितमिति अवोचत। नेपाल वायुसेवा निगमेन विमानस्य क्षमतातः अधिक स्थानानां कृते यात्रा प्रपत्रम् विक्रीय यात्रिणाम् असहायावस्थायाम् निपातनानन्तरम् नेपाल नागरिक उड्डयन प्राधिकरणेन निगमाय स्पष्टीकरणम् स्पृष्टम् वर्तते। यात्री क्षमतातः अधिक स्थानानां कृते यात्रा प्रपत्र विक्रयणस्य कारणेन सः दिनत्रयस्य अभ्यन्तरे स्पष्टीकरणम् अर्पयितुम् असहायावस्थायाः यात्रिणः अद्य शनिश्चरवासरस्य अभ्यन्तरे एव गन्तव्यस्थलम् प्रापयितुञ्च प्राधिकरणेन निगमाय निर्दिष्टमस्ति। निगमस्य मार्गशीर्षमासस्य प्रथम दिवसस्य गत बृहस्पतिवासरस्य उड्डयन विमानद्वये यात्रिक्षमतात अधिक स्थानानां कृते यात्रा प्रपत्र विक्रयणस्य कारणेन विमानस्थलम् प्राप्ताः यात्रिणः प्रत्यावर्तिताः आसन्। यात्रा प्रपत्रम् गृहीत्वा विमानस्थलम् प्राप्तानां यात्रिणां विमाने स्थानानि न सन्तीति उक्त्वा अनारोह अनन्तरम् यात्रिभिः निगमम् दण्डयितुम् प्राधिकरणे निवेदनम् प्रदत्तम् आसीत्। अतःपरम् एवंविधाः त्रुटिः न कर्तुमपि प्राधिकरणेन निगमः निर्दिष्टो वर्तते। उत्पादन मूलक क्षेत्र पक्षस्य द्वितीय चरणस्य कोरियादेशीय भाषा परीक्षायाः परिणाम प्रकाशितो वर्तते। गत भाद्रमासस्य विंशा दिवसात् कार्तिक मासस्य एकविंशम् दिवसम् यावत् सञ्चालितायाः एतस्याः परीक्षायाः परिणामः कोरियादेशस्य एचआरडी निकायात् प्राप्तो स्थिति वृत्त्युपार्जन व्यवस्थापन प्रणाली कोरिया शाखा ज्ञापयति।